ईश्वरः परमः कृष्णः सच्चिदानन्द विग्रहः अनादिरादिर गोविन्दः सर्वकारण कारणम् सहस्त्रपत्र कमलम् गोकुलाख्यम् महत्पदम् तत्करुणिकारम् तद्धामम् तदनन्तांश शम्भवम् कर्णिकारम् महद्यन्त्रम् षट्कोणम् व्रजकीलकम् षडङ्गषट्पदिस्थानम् प्रकृत्या पुरुषेण च प्रेमानन्द महानन्द अन्दे नाश्रयस्थितास्थितम् ज्योतिरूपेण मनुना कामबीजेन सङ्गतम् तत्किञ्जलकम् तदंशानाम् तत्पत्राणि श्रियामपि चतुरस्त्रम् तत्परितः सेतदीपाख्यमद्भुतम् चतुरस्त्रम् चतुर्मूर्तिश्चतुर्धामश्चतुस्कृतम् चतुर्भिः पुरुषार्थैश्च चतुर्भिर्हेतुविवृतम् शूलैः दशभिरन्धर्धमूर्ध्वादोदिक्षुषपि अष्टभिर्निधिर्भिजुष्टम् अष्टभिः सिद्धिभिस्तथा मनोरूपैश्च दशभिर्दिक्पालैः परितोरुतम् श्यामैः गौरैश्च रक्तैश्च शुक्लैश्च पार्षदैभिः शोभितम् शक्तिभिस्ताभिरद्भुताभिः समन्ततः एवम् ज्योतिर्मयो देवः सदानन्दपरात्परः आत्मरामस्य तस्यास्ति प्रकृत्या न समागमः मायया रममाणस्य न वियोगास्तया सह आत्मना रमया रेमे त्यक्तकालम् शुश्रुक्षया नियतिः स रमा देवी तत्प्रिया तद्दशम् सदा तद्लिङ्गम् भगवान् शम्भुर्ज्योतिरूपः सनातनः या योनिम् सा पराशक्ति कामबीजम् महद्वरेः लिङ्गयोनिकात्मिका जाता इमा माहेश्वरी प्रजा शक्तिमान् पुरुषः सोऽयम् लिङ्गरूपी महेश्वरः तस्मिन्नाविर्भूर्लिङ्गे महाविष्णुर्जगत्पति सहस्रशीर्षा पुरुषः सहस्राक्षसहस्रपात् सहस्रबाहुर्विश्वात्मा सहस्रांशः सहस्रशु नारायणस्य भगवान् तस्तस्मात्सत्सनातनः आविरासित्कारणार्णो निधिसङ्कर्षणात्मकः योगनिद्राम् गतस्तस्मिन् सहस्रांश स्वयम् महान् तद्रोमबीजजालेषु बीजम् सङ्कर्णस्य च हेमान्यण्डानि जातानि महाभूतानि घृतानि तु प्रत्यमण्डमेवाङ्काशान् एकाशान् दर्शति स्वयम् सहस्रमूर्ध्वा विश्वात्मा महाविष्णु सनातनः वामाङ्गदस्रजम् विष्णुम् दक्षिणाङ्गात् प्रजापतिम् ज्योतिर्लिङ्गमयीम् शम्भुम् कूर्चदेशाद् वात्सृज अहङ्कारात्मकम् विश्वम् तस्मात्तेदव्यजायत अथ स्त्रीविधैस्ते विषैर्लीलाल्मद्भुतः किल योगनिद्रा भगवती तस्य श्रीवसङ्गता शुश्रुक्षयान्ततो नाभिस्तस्य पद्मम् विनिर्ययो तन्नालम् हेमनलिलम् ब्रह्मणो लोकमद्भुतम् तत्त्वानि पूर्वरूढानि कारणानि परस्परम् समवाया प्रयोगाश्च विभिन्नानि पृथक् पृथक् चित्शक्त्या सज्जमानोऽथ भगवानादिपुरुषः योजयन्मायया देवो योगनिद्रामकल्पय योजयित्वा तु तान्येव प्रविवेश स्वयम् गुहाम् गुहाम् प्रविष्टे तस्मिंस्तु जीवात्मा प्रतिबुध्यते स नित्यो नित्यसम्बन्धः प्रकृतिश्च परेवसा एवं सर्वात्मन संबंधम नाभ्याम पद्मम हरेरभूत तत्र ब्रह्माद् भवद्भूयश्चतुर्वेदी चतुर्मुखः संजातो भगवान् शक्त्यात् तत्कालं कील चोदितः शिश्रुक्षयां मतिं चक्रे पूर्व संस्कार संस्कृतः ददर्श केवलं ध्यान्तं नान्यं कीर्ति सर्वतः उवाच पुरुतस्तस्मै तस्या दिव्या सरस्वती काम कृष्णाय गोविंद हे गोपीजन इत्यपि वल्लभाय प्रिया वहने मंत्रम ते दास्यति प्रियम् तपस्त्वं तप एपितेन तव सिद्धिर्भविष्यति अथ ते पेश सुचिरं प्रीणं गोविंदम अव्ययम् श्वेतदीपं पतिं कृष्णं गोलोकस्थं परात्परम् प्रकृत्या गुणरूपिण्या रूपिण्या परिपासितं सहस्रदल संपन्ने कोटि किंजिल्क ब्रूहिते भूमिश्चिन्तामणि तत्र कर्णिकारे महासने समासीनं चिदानन्दं ज्योतिरूपं सनातनं शब्दब्रह्ममयं वेणुं वादयन्तं मुखाम्बुजे विलासिनी गणवृतं स्वैश्वैरंशैस्तुतम् अथ वेणुनिनादस्य त्रयीमूर्तिमयी गति स्फुरन्ति प्रविवेशेश मुखाभ्यामि स्वयम्भुवः गायत्रीं गायतस्तस्माद् अधिगत्य सरोजजः संस्कृतश्चादिगुरुणा द्विजमतान्मत्तः त्रया प्रबुद्धो अथ विधि विज्ञात तत्व सागरः तुष्टाव वेद सारेण स्त्रोत्रिणानेन केशवम् चिन्तामणि प्रकर सद्म सुकल्प वृक्ष लक्षावृतेषु सुरभिरपि पालयन्तम् लक्ष्मी सहस्र शत संभ्रम सेव्यमानम् गोविंदमादि पुरुषं तमहं भजामि वेणुं कण्वन्तर्मरविन्द दलायताक्षं बरहावतं समसिताम्बुद सुन्दराङ्गं कन्दर्पकोटिकमनीय विशेष शोभं गोविंदमादि पुरुषं तमहं भजामि आलोलचन्द्रकल सद्वनमाल्यवंशी रत्नांगदं प्रणयकेलिकला विलासं श्यामं त्रिभंगललितं यत प्रकाशं गोविंदमादि पुरुषं तमहं भजामि अंगानि यस्य सकलेन्द्रिय वृत्तिमन्ति पश्यन्ति पांति कलयन्ति चिरंजगन्ति आनंद चिन्मय सदुज्ज्वल विग्रहस्य गोविंदमादि पुरुषं तमहं भजामि अद्वैतमच्युतमनादिमनन्तरूपं आद्यं पुराण पुरुषौ नवयौवनं च वेदेषु दुर्लभमदुर्लभमात्मभक्तो गोविंदमादि पुरुषं तमहं भजामि पन्थास्तु कोटिशतवत्सर सप्रगम्यो वायोरथापि मनसो मुनिपुङ्गवानां सोऽप्यस्ति यत्प्रसीदमचिन्त्य विचिन्त्य तत्त्वे गोविन्दमादिपुरुषं तमहं भजामि एकोऽप्यसौ रचयितुं जगदण्डकोटिं यच्छक्तिरस्ति जगदण्डचयाय दन्तः अण्डान्तरस्थ परमाणुचयान्तरस्थम् गोविंदमादिपुरुषं तमहं भजामि यद्भावभावितधियो मनुजास्तथैव सम्प्रापैरूपमहिमाशयानभूषा सुक्तैरमेव निगमप्रतिसैस्तुवन्ति गोविंदमादिपुरुषं तमहं भजामि प्रेमाञ्जनच्छुरितभक्तिविलोचनेन सन्तः सदैव हृदयेषु विलोकयन्ति यं श्यामसुन्दरमचिन्त्य गुणस्वरूपम् गोविंदमादिपुरुषं तमहं भजामि। रामादिमूर्तिशुकलानियमेन तिष्ठन् नानावतारमकरुद्भुवनेषु किन्तु कृष्ण स्वयं समभवत् परमः पुमानयो गोविंदमादिपुरुषं तमहं भजामि। आनन्दचिन्मयरसात्मनयात्मनः सु यः प्राणिनां प्रतिफलं स्मरुतामपेत्य लीलायितेन भुवनानि जगस्त्यजस्रं गोविन्दमादिपुरुषं तमहं भजामि। गोलोकनाम्नि निजधाम्नि तले च तस्य देवी महेश हरिधामशु तेषु तेषु ते ते प्रभवनिचया विहिताश्च येन गोविन्दमादिपुरुषं तमहं भजामि। सृष्टिस्थितिप्रलयसाधनशक्तिरेका छायैव यस्य भुवनानि बिभर्ति दुर्गा इच्छानुरूपमपि यस्य च तिष्ठति सा गोविन्दमादिपुरुषं तमहं भजामि। क्षीरं यथा दधिविकारविशेषयोगा सञ्जायते न ततः पृथगस्ति हेतो यः शम्भुतामपि तथा समुपेति कार्यान् गोविन्दमादिपुरुषं तमहं भजामि। दीपार्चिरेव हि दशान्तरमव्यपेत्य दीपायते विवृतहेतुसमानधर्मा यस्ताद्रगेव हि च विष्णुतया विभाति गोविन्दमादिपुरुषं तमहं भजामि। यः कारणनावर्जले भजति स्म योग निन्द्रामनन्तजगदण्डसरोमकूप आधारशक्तिमवलम्ब्य परां स्वमूर्तिं गोविन्दमादिपुरुषं तमहं भजामि। यस्यैक्वनिःश्वसतत्कालपथावलम्ब्य जीवन्ति लोमविलजा जगदण्डनाथा विष्णुर्महान् हि यस्य कलाविशेषो गोविन्दमादिपुरुषं तमहं भजामि। भास्वां यथा स्म सकलेषु नितेषु तेज स्वीयं कियत् प्रकट्य तत्र ब्रह्माय एष जगदण्डविधानकर्ता गोविन्दमादिपुरुषं तमहं भजामि। यदपादपल्लवयुगं विनिधाय कुम्भ द्वन्द्वे प्रणामसमये स गणाधिराजः विघ्नान् विहन्तमलमलस्य जगत्त्रयस्य गोविन्दमादिपुरुषं तमहं भजामि। अग्निर्महीर्गगमम्बुमरुदश्च कालस्तथा मनसीति जगत्त्रयाणि यस्माद्भवन्ति विभवन्ति विशन्ति यं च गोविन्दमादिपुरुषं तमहं भजामि। यच्चक्षुरेश सविता सकलग्रहाणां राजा समस्तमुरतीशेष तेजः यस्याज्ञया भ्रमति संवृतकालचक्रो गोविन्दमादिपुरुषं तमहं भजामि। धर्मोऽथ पापनिचयस्तु तयस्तपांसि ब्रह्मादिकीटपतगावदयश्च जीवाः यदत्र मात्रविपटप्रकटप्रभावा गोविन्दमादिपुरुषं तमहं भजामि। यं क्रोधकामसहजप्रणयादिभीति वात्सल्यमोहगुरुगौरवसेव्यभावे सञ्चिन्त्य तद्रशिन्तनमापुरेति गोविन्दमादिपुरुषं तमहं भजामि। श्रेयः कान्ताकान्तः परमपुरुषकल्पतरवो द्रुमा भूमिश्चिन्तामणिगणमयितोऽयममृतम् कथागानं नाट्यं गमनपि वंशी प्रियसखी चिदानन्दं ज्योतिपरमपि तदास्वाद्यमपि च स यत्र क्षीराब्धिः स्रवति सुरभिश्च सुमहान् निमेषार्दाख्यो वा व्रजति न हि यत्रापि समयः भजे श्वेत द्वीपं तमम इहं गोलोकमिति यम विन्दन्तस्ते संतः क्षिति विरचारा कतिपये। प्रबुद्धे ज्ञान भक्तिभ्याम आत्मानंदम चिन्मये उदित्यन्नमुत्तमाम भक्तिर्भगवत प्रेम लक्षणाम प्रमाणैस्तदाश्चारै तदाभ्यासन्मम तनरम बोधयन्यत्मात्मात्मानं भक्तिमामुत्तमाम लभे यस्या श्रेयस्करं नास्ति यया निवृत्तिमाप्नुयात् या साधयति मामेव भक्ति तामेव साधये धर्मानन्यान् परित्यज्य मामेकं भज विश्वसन् यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी कुर्वन् निरन्तरं कर्म लोकोऽयम् अनुवर्तते तेनैव कर्मणाध्यायन् माम् पराम् भक्तिमिच्छति। अहम् हि विश्वस्य चराचरस्य बीजम् प्रधान प्रकृतिम् पुमांश्च मया हितम् तेजम् इदम् विवर्षि विधे विदेहि त्वमथो जगन्ति। ईश्वरः परम कृष्ण सच्चिदानन्द विग्रह अनादिरादिर्गोविन्दः सर्वकारण कारणम्।